अभिवर्तेन हविषालेनेन्द्रो अभिवाहृते तेनास्मान् ब्रह्मणस्पतेभिराष्ट्राय वर्तय अभिवृत्य समत्रानभियानो अराधकः अभिवृतन्यन्तम् दष्टाभियो न गिरस्यति अभित्वा देवस्य पिताभिलोमो अविवृतत् अभित्वा विश्वा भूतान्यभिभत्तो यथा सासि येनेन्द्रो हविषा कृत्य भवद्युम्नक्रमः इदम् ददक्रिदेवासपत्नः किला भुवम् असपत्नः स पत्नःभिराष्ट्रो विरासैः यथाहमेषाम् भूतानाम् विराजाधिगणस्य च